एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः प्रधानमन्त्री केपी शर्मा ओली निगदति लोकतान्त्रिक गणतन्त्रम् संस्थागतम् विधातुम् जनतायाः जीवनस्तरम् उन्नेतुम् च स्तरत्रयस्यैव सर्वकारैः मिलित्वा कार्यम् कर्तव्यम् प्रधानमन्त्री ओली पूर्वेद्यो मधेस प्रदेशसभाम् सम्बोधयन् संघ प्रदेश स्थानीय स्तरैः सामाजिक न्यायम् सुशासनम् च केन्द्रे संस्थाप्य कार्यम् कर्तव्यम् इति प्रावोचत् प्रधानमन्त्री ओली संघीय लोकतान्त्रिक गणतन्त्रम् देशस्य वर्तमानम् भविष्यच्च अस्तित्वतः अस्य सबलीकरणाय संविधाने आवश्यक सुधार संशोधनम् च क्रियमाणे स्तः इति असूचयत् प्रधानमन्त्री ओली संघीयता जनतायाः मतात्यागेन बलिदानेन च प्राप्त व्यवस्था अस्ति त्यतः अस्य रक्षायै योगदानम् कर्तुमपि सर्वान् अन्वरुणत् प्रधानमन्त्री ओली जनतायाः आर्थिक सामाजिक जीवनस्य परिवर्तनकारी कार्यम् कर्तुम् असमर्थनानन्तरम् प्रणाल्या एव उपरि प्रश्नस्य उद्भावनम् सामान्यम् भवतीत्यतः सुशासन विकासयोर्माध्यमेन उत्थापितानाम् प्रश्नानाम् उत्तरम् प्रदेयमिति प्रावोचत् तदवसरे प्रधानमन्त्री ओली मधेस प्रदेशस्य विकास समृद्ध्योः कृते सर्वकारेण सुनकोशी मरिन पथान्तरण योजनातः सेचन सौविध्य प्रापणस्य राजमार्गस्य स्तरोन्नतेश्च बाह्यायामिक योजनाः अग्रे सार्यमाणाः सन्तीति असूचयत् सर्वकारेण आन्दोलनरताः शिक्षकाः अद्यतनदिवसाय वार्तायै आहूताः वर्तन्ते शिक्षा विज्ञान प्रविधि मन्त्रालयेन नेपाल शिक्षक महासंघः वार्तार्थम् आहूतोऽस्ति मन्त्रालयस्य प्रवक्त्रा शिवकुमार सापकोटाभिधेन ह्य विज्ञप्तिम् प्रकाश्य आन्दोलनरतानाम् सर्वेषाम् शिक्षकाणाम् प्रतिनिधित्वेन वार्तार्थम् महासंघः आहूतोऽस्ति विद्यालय शिक्षा सम्बद्धस्य विधेः संशोधनाय एकीकरणाय च निर्मितस्य विधेयकस्य पारितीकरणस्य याचनया महासंघस्य आह्वानेन शिक्षकाणाम् आन्दोलनम् नैरन्तर्येण काष्ठमण्डपे सञ्चलद् अस्ति राप्रपा नाम्ना राष्ट्रिय प्रजातन्त्र दलेन सांविधानिक राजसंस्थायाः हिन्दुराज्यस्य च याचनाम् विधाय ह्य काष्ठमण्डपस्य बल्कुस्थाने प्रदर्शन सभा समायोजिता सभाम् सम्बोधयन् राप्रपा दलस्य अध्यक्षः राजेन्द्र लिङ्गडेन आत्मभिः कस्यापि निषेध अपमानश्च यत्र न स्यात् तादृशी व्यवस्था अपेक्षितास्तीति उदैरयत् अध्यक्ष लिङ्गडेन स्वस्य आन्दोलनस्य उद्देश्यम् देशस्य सर्वैः दायित्ववायुभिः पक्षै स्थान प्रापणत्वेन नूतन राजनीतिक सहमतिः अस्तीति प्रत्यपादयत् तदवसरे अद्यतः लिङ्गडेन सर्वकारेण निगृहितान् स्वस्य नेतृन् मोचयितुम् अयाचत सभायाम् दलस्य निर्देशन समितेः अध्यक्ष डा प्रकाश चन्द्र लोहनी दलस्य पूर्वाध्यक्ष पशुपति शमशेर जबरा वरिष्ठोपाध्यक्ष बुद्धिमान तामाङ च विचारान् व्यक्तवन्तः पर्सा जनपदे अवैध चक्रज न्याय वित्त प्रणाल्याः विरुद्ध विहितेन दण्डनेन एकसप्तति विघा परिमाणतः अधिक परिमाणस्य भूमि पीड़ित जनैः प्राप्तास्ति एवमेव उत्तमरणानाम् पञ्चषष्टेः कोटितोऽपि अधिक रूप्यकाणाम् याचनायाम् द्वात्रिंशत् कोटयः त्रिंशत् लक्ष्याणि च रूप्यकाणि सहमतौ पीडितजनैः प्राप्तानि सन्ति पर्सा जनपद प्रहरी कार्यालयस्य अनुसारेण अधुनावधि पञ्चशतम् अष्टासप्ततिश्च साक्षात् प्राप्तानि निवेदनानि जनपद प्रशासन कार्यालयात् प्राप्तानि सहस्रम् षट्शतम् त्रिषष्टिश्चेति कृत्वा समग्रतः सहस्रद्वयम् शतद्वयम् एकविंशतिश्चेति निवेदनेषु सहस्रे शतत्रये पञ्चत्रिंशति च निवेदनेषु सहमतिः धृतास्ति संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ निगदति नेपाल राष्ट्र कोषस्य अधिशासक पदस्य नियुक्तौ कापि अनियमितता न भविष्यति। मन्त्री परिषद उपवेशस्य निर्णयान् सार्वजनिक कर्तुम् ह्य मन्त्रालये आयोजिते पत्रकार सम्मेलने सर्वकारस्य प्रवक्ता च संचार मन्त्री गुरूङ देशस्य अर्थतन्त्रम् कृष्णसूचित पसार्य आर्थिक विकासाय सर्वकार प्रतिबद्धोऽस्तीति चर्चयन् अधिशासकस्य नियुक्तौ सर्वकारेण विलम्बनम् न विधास्यते इति समस्पष्टयत्। गत सोमवासरे उपविष्टेन मन्त्रिपरिषद उपवेशेन बौद्धनाथ क्षेत्र विकास समिते रिक्त कार्यकारी निर्देशक पदे ललितपुरस्य मोहन कुमार तामाङ इत्यमुम् नियुक्तुम् निर्णीतमस्ति। एवमेव मन्त्रिपरिषद उपवेशेन वैकल्पिक वित्त परिचालन सम्बद्धायै व्यवस्थायै निर्मितम् विधेयकम् संघीय संसदि प्रस्तुत्यर्थम् स्वीकृतिम् प्रदातुम् अष्टसप्तत्युत्तर द्विसहस्रतम विक्रम वर्षीयम् नागरिक एप नामक सामाजिक सञ्जाल सञ्चालन व्यवस्थापन निर्देशिका निरसयितुम् विभिन्नेषु अन्तर्राष्ट्रिय मञ्चेषु सहभागितायै मन्त्री स्तरीयेभ्य प्रतिनिधिमण्डलेभ्य स्वीकृतिः प्रदत्तास्तीति च मन्त्री गुरूङ असूचयत्। सर्वकारेण वैदेशिकेषु समुद्रेषु नेपालस्य ध्वजवाहक जलपोतस्य सञ्चालनाय पूर्वकार्यम् विहितमस्ति। राष्ट्रियसभाया विधायन व्यवस्थापन समितो विद्यमानस्य जलपोत विधेयकस्य प्रकरणगत विमर्शने भौतिक पूर्वाधार यातायात मन्त्री देवेन्द्र दाहालः भारत प्रवृत्तिनाम् देशानाम् समुद्रेषु जलपोतस्य सञ्चालनाय सर्वकारेण विधेयकस्य प्रारूपम् निर्मितम् अस्तीति असूचयत्। हुम्ला जनपदस्य नामखा ग्रामपालिकायाम् ऊनचत्वारिंशद् हिम व्याघ्राः प्राप्ताः वर्तन्ते। क्यामरा ट्रैपिंग नामनः छायाचित्र ग्रहण प्रविधेः प्रयोगं विधाय वितया गणनया 49 हिम व्याघ्राः प्राप्ताः सन्तीति सहायक वनाधिकृतः बाबुलाल वञ्जन अज्ञापयत्। हिम व्याघ्रानुसन्धानकर्ता रिञ्जिन फुन्जोक लामा नामखा क्षेत्रे छायाचित्र प्रविधेः माध्यमेन एकषष्ट्य हिम व्याघ्राणाम् अध्ययनम् विहितमस्तीति अज्ञापयत्। ग्रामपालिकया सम्प्रति हिम व्याघ्राणाम् संरक्षणाय कार्यक्रमो निर्मास्यते इति ग्रामपालिकायाः अध्यक्ष प्रेम बहादुर लामा असूचयत्। नारायणी नद्याम् निमज्य द्वौ जनौ विलुप्तौ स्तः। नवलपरासी वर्धघाट सुस्ता पूर्व जनपदस्य गैंडाकोट नगरपालिकायाः प्रथमवडा क्षेत्रस्य ब्रिटिश शिविर निकटे नारायणी नद्याम् निमज्य द्वौ जनौ विलुप्तौ स्तः इति प्रहरिणा ज्ञापितम् वर्तते। मृतकौ गैंडाकोट स्थानस्य विष्णु शेरपुञ्जा इत्यस्य पुत्री त्रयोदश वर्षीया दीक्षा पुत्र स्वप्निल च वर्तेते इति प्रहरिणा ज्ञापितमस्ति। विलुप्तयोः अन्वेषणकार्यम् विद्यमानम् अस्तीति प्रहरिणा ज्ञापितम् वर्तते। स्वास्थ्य जनसंख्या मन्त्री प्रदीप पौडेलः कथयति नेपालेन पश्चात्तन समये दशकत्रये मातृप्रसूतिका महिलया सह सम्बद्ध मृत्योः प्रतिशतम् न्यूनीकर्तुम् महत्वपूर्ण प्रगति अधिगतास्ति। जनसंख्या विकास आयोगेन संयुक्त राष्ट्र संघस्य मुख्यालय आयोजितम् कार्यक्रमम् पूर्वे द्युः सम्बोधयन् मन्त्री पौडेलः स्वास्थ्य क्षेत्रे वित्तस्य सीमिततायाः कारणेन सर्वत्र जनतायाम् स्वास्थ्य सेवाम् प्रापयितुम् नेपालाय काठिन्यम् जायमानम् अस्तीति अवोचत्। नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्डः वामपन्थी शक्तेः एकीभवनाय बलम् ददाति। प्रगतिशील लेखक संघस्य त्रयोदश राष्ट्रिय सम्मेलनात् निर्वाचितायै नूतन कार्यसमित्यै वर्धापन ज्ञापन कार्यक्रमे पूर्वे द्युः काष्ठमण्डपे अध्यक्ष प्रचण्डः एवम् अगदत् इति समाचाराः।